इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः गणेश हेगडे। अथ वार्ताः। प्रधानमन्त्री श्रीनरेन्द्रमोदी उक्तवान् यत् नेक्स्ट् जनरेशन् जीएसटी परिष्काराः अद्य नवरात्र्याः प्रथमदिनात् आरभ्य प्रवर्तन्ते। राष्ट्रं सम्बोधयता श्रीमोदिना प्रोक्तं यत् एषः जीएसटी बचत उत्सवः अद्य प्रारभ्यते, यत्र हि जनाः स्वेच्छया वस्तूनि न्यूनमूल्येन क्रेतुं शक्नुवन्ति। सः अवदत् यत् एतैः परिष्कारैः राष्ट्रस्य विकासगाथा परिवर्तिता भविष्यति, तथा च युवकाः, नवमध्यमवर्गः, कृषकाः, महिलाः, उद्यमिनः च अनेन बचतुत्सवेन लाभान्विताः भविष्यन्ति।
देश में जीएसटी बचत उत्सव शुरू होने जा रहा है। इस जीएसटी बचत उत्सव में हमारे देश के गरीब, मध्यम वर्गीय लोग, न्यू मिडिल क्लास, युवा, किसान, महिलाएं, दुकानदार, व्यापारी, उद्यमी, सभी को ये बचत उत्सव का बहुत फायदा होगा।
प्रधानमन्त्रिणा टिप्पणीकृता यत् नागरिकाः, व्यापारिणः च दशकैः करस्य जटिलजाले निबद्धाः आसन्, यत्र ऑक्ट्रोई, प्रवेशकरः, विक्रयकरः, आबकारी, वैट, सेवाकरः च आसन्। सः रेखांकितवान् यत् पूर्वम् एकस्मात् नगरात् अन्यस्मिन् नगरे वस्तूनां परिवहनार्थं बहुविध निरीक्षणस्थानकानि पारं कृत्वा असंख्यानि प्रपत्राणि पूरणीयानि आसन्। सः अवोचत् यत् तस्य सर्वकारः 14,000+ वर्षे सत्ताग्रहणानन्तरं राज्यैः, हितधारकैः च सह परामर्शं कृत्वा जीएसटी इत्यस्य कृते प्राधान्यम् अददात्। केन्द्रराज्ययोः प्रयत्नानन्तरं बहवः व्यर्थकराः समाप्ताः इति सः अवदत्। श्रीमोदिना प्रकाशितं यत् नूतन संरचनायाः अन्तर्गतं केवलं 5%, 18% करपट्टिकाः एव मुख्यतया अवशिष्टाः भविष्यन्ति। सः पुष्टिं कृतवान् यदनेन एकराष्ट्रं एककरः इत्यस्य स्वप्नः साकारः भवति। केन्द्रीय गृहमन्त्री अमितशाहः अवदत् यत् नेक्स्ट् जनरेशन् जीएसटी परिष्काराः आत्मनिर्भर भारतस्य लक्ष्यस्य प्राप्तौ प्रमुखां भूमिकां निर्वहन्ति। सोशल मीडिया सन्देशे श्रीशाहः जीएसटी परिष्कार विषये प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य सम्बोधनस्य प्रशंसां कुर्वन् एतद् उक्तवान्। सः उक्तवान् यत् कृषिः, स्वास्थ्यं, वस्त्रं, मानवनिर्मिततन्तुः इत्यादिषु क्षेत्रेषु जीएसटी न्यूनीकृत्य निर्माणं वर्धयितुम् एषः उपक्रमः कृतः वर्तते। प्रधानमन्त्री नरेन्द्रमोदी अद्य अरुणाचलप्रदेश, त्रिपुराराज्ययोः यात्रायां भविष्यति। अस्मिन् यात्रावधौ सः 1,500,000,000,000 रूप्यकाणाम् अनेक विकासपरियोजनानाम् उद्घाटनं करिष्यति। श्रीमोदी अरुणाचलप्रदेशे 700,000+ द्वयोः प्रमुखयोः जलविद्युत् प्रकल्पयोः आधारशिलां स्थापयिष्यति। असौ त्रिपुरायां तीर्थयात्रा पुनरुद्धार कार्यं समेत्य आध्यात्मिक परम्परा संवर्धन अभियान योजनायाः अन्तर्गतं माताबाड़ी क्षेत्रे माता त्रिपुरा सुन्दरी मन्दिर परिसरस्य विकास कार्यस्य उद्घाटनम् अपि करिष्यति। नवदिवसीयः नवरात्रिमहोत्सवः अद्य आरभ्यते। नवानां रात्रीणां समाहारः नवरात्रम् इत्युच्यते, यद्धि दुर्गादेव्याः, तस्याः नवदुर्गा अवताराणां च आराधनाय समर्पितं वर्तते। भारतीयाः सम्पूर्णे वर्षे 4 नवरात्राणि आचरन्ति, परन्तु केवलं पर्वद्वयं शारदीयनवरात्रिः, चैत्रनवरात्रिः च सर्वत्र आचर्येते। शारदीय नवरात्रि उत्सवस्य समापनं दशहरा अथवा विजयदशमी इत्यनेन भविष्यति। यस्मिन् दिने भगवान् रामः रावणं विजितवान् आसीत्। एषः उत्सवः अद्य आरभ्य सर्वत्र आदेशे आरभ्यते। दुबई अन्ताराष्ट्रिय क्रीडांगणे एशिया कप इत्यस्य सुपर 4 इति क्रिकेट प्रतियोगितायां भारतेन पाकिस्तानं 6 स्तोभकैः पराजितम् इति वार्ताः।